गुरुं गणपतिम् आचार्यान् सर्वान् नत्वा अद्यतनकक्षां प्रारम्भं कुर्मः. वेदवादरताः ये ये कर्मठाः सन्ति ते केवलं कर्ममार्गम् अनुसरन्ति, ते निवृत्तिमार्गं तत्र न चिन्तयन्ति न मन्यन्ते च. अतः कृष्णः वदति, हे अर्जुन, निस्त्रैगुण्यः भव, निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेम, आत्मवान् च भव इति सः अर्जुनं प्रति उपदिशति. तत्र प्रत्येकमपि अस्माभिः सम्यक् दृष्टमस्ति. अत्र निस्त्रैगुण्यः इत्युक्ते किं, निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेमः, आत्मवान्, एतत् सर्वम् अस्माभिः दृष्टमस्ति सम्यक्. एकः पुरुषः यः एतत् सर्वं पालितवान्, यः सर्व उपर्युक्तगुणान्वितः आसीत् इत्युक्ते तत्र अस्माभिः तत्र उदाहरणम् आवश्यकम्. इफ् यू नीड् एन् एक्साम्पल् आफ् वन् पर्सन् हू वास् आल् दीस् हू हेड् आल् दीस् क्यारेक्टरिस्टिक्स्, निस्त्रैगुण्यः, निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेमः, आत्मवान्, देन् वी नीड् टु लुक् अट् रामायणं. तत्र श्री पतितपावनः श्रीरामचन्द्रः मर्यादापुरुषोत्तमः यः आसीत् सः अस्माकं कृते उदाहरणरीत्या स्वीकर्तुं शक्यते. निस्त्रैगुण्यः आसीत्, निर्द्वन्द्वः आसीत्, नित्यसत्त्वस्थः आसीत्, निर्योगक्षेमः आसीत्, आत्मवान् अपि आसीत् सः. अग्रे अपि श्लोकेषु तत्र अस्माभिः तत्र श्रीरामचन्द्रस्य उदाहरणं स्वीकृत्य अस्माभिः तत्र अन्वयं कर्तुं शक्यते कथं भवितव्यम् इति. तत् अग्रे अपि श्लोकेषु प्रत्येकरीत्या उदाहरणरीत्या स्वीकृत्यापि द्रष्टुं शक्यते. अग्रे अस्माभिः दृष्टमासीत्, यावानर्थ उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः. A person who has access to a very very big river fully for himself, if he wants to take a few glass of waters, very easily he will be getting it. Similarly, a person who has had the atma sakshatkara vijanatah, who has the pandita atma vishaya buddhihi, who had the atma gyanam, who has the brahma sakshatkaram, for him getting all the fruits of small karmas, pujas and other which have been told in the Vedas is very very easy and easily attainable. Tatra vedeshu yatkimapi nitya karma anushtana ritya uktamasti tatra tat anushtanena yat phalam uktamasti. Whatever fruits have been told by doing the nitya sandhyavandanam kartavyam, nitya puja kartavya ityadikam yat sarvam uktamasti, tat sarva karanena yad anandah yal labah लभ्यते, तत्सर्वं ब्रह्मसाक्षात्कारकृतस्य विजानतः पण्डितस्य ब्राह्मणस्य लभ्यते एव. सो इट् इस् वेरि ईजी, ही विल् गेट् इट्. यावानर्थ उदपाने सर्वतः सम्प्लुतोदके, यु हेव् वाटर् एव्रिवेर् एण्ड् इफ् यु नीड् टु टेक् वन् ग्लास् आफ् वाटर् फार् ड्रिङ्किङ्ग् इट् इस् वेरि ईजी फार् हिम्. सिमिलर्ली पर्सन् हू हेस् द विजानतः ब्रह्मसाक्षात्कार, आल् नोयिङ्ग् ब्रह्मन् नोयिङ्ग् पर्सन्, for him he can take, he'll easily get whatever he wants. Alpe jalashaye, this tatparyam is very helpful for us in understanding that alpe jalashaye snanapanadikam prayojanam yadyad bhavati tat sarvam sarvatra jalena paripurne sarovare avashyam bhavati tatha vedeshu pratipaditanam karmanam acharanena yavan anandah तावान् पण्डितस्य ब्रह्मज्ञानात् अवश्यं भवति. अल्पे यत् सिद्ध्यति तदवश्यं महति सिद्ध्यत्येव इति भावः. द रिवर्स् इस् आल्सो सेम्. वाट् एवर् यु आर् गेटिङ्ग्, इफ् यु हेव् अ ग्लास् आफ् वाटर् एण्ड् यु केन् क्वेञ्च् युर् थर्स्ट्, देन् यु हेव् अ बिग् रिवर् विच् इस् वेरि वेरि निर्मलरीत्या, लैक् द रिवर् विच् इस् फ्लोयिङ्ग्, गङ्गा फ्लोयिङ्ग् इन् ऋषिकेश्, विच् वेर् एन् यु केन् जस्ट् सी द एण्टैर् बाटम् इट् सेल्फ् यु केन् सी. तादृश वेन् यु हेव् अ निर्मल स्फटिकरीत्या यदा प्रवाहरीत्या नदी अस्ति, तत्र स्वीकर्तुं शक्यते, यत्किमपि आवश्यकं तत् स्वीकर्तुं शक्यते. सो ही सेस् ब्रह्मानन्द आर् द परमानन्द विच् इस् देर् बै दट् यू केन् गेट् वाट् एवर् काम्यार्थ आल्सो यू केन् गेट् अपार्ट् फ्रम् द अदर् थिङ्ग्स्. Then we come to the most important shloka, which we discussed in very very detail in the last class. We took only this shloka and analyzed it very in detail. Let us just have a recap of that also quickly. Karmanyeva adhikaraste ma phaleshu kadachana ma karma phala heturbhuhu ma te sangostu akarmani. Tatra asmakam adhikarah kutra vartate karmani eva vartate. Karma, what is the definition of karma here? If we have to see, what is karma? Okay, you are telling me karmani eva adhikara asti. What is my karma? Quickly, we have to refer to the previous classes wherein we saw there was one word, what is called swadharma. Again, what is swadharma? Again, going back to all the commentaries, we get a few answers for that. Kulotpannaritya yad dharmaha uktamasti. Ityukte varnaritya. यत् धर्मः उक्तमस्ति. दोस् अलोकेटेड् ड्यूटीस् एस् पर् युवर् फेमिली बर्त् एस् पर् द वर्ण चातुर्वर्ण्यं मया सृष्टं गुण कर्म विभागशः. गुण कर्म, गुण आर् द इन्हरेण्ट् स्किल् सेट्स् विच् वी हेव् विच् वी गेट् बै टेकिङ्ग् बर्त् इन् अ कैण्ड् आफ् अ फेमिली आर् इन् अ कैण्ड् आफ् अ कुल. एण्ड् कर्म आर् द अदर् अक्वैर्ड् स्किल् सेट्स्. सो बिकास् आफ् दीस् we are divided into four parts, four organizations. All the four, each of which is equally important. There is no high and medium or low in that. Tasmin madhye pashyamaschet evam. The first definition is karma. For karma, what is karma? Whatever is your kula dharma, do that. That is varna dharma, varna dharma, which is there, that you have to follow. So varna is first one for karma. Second is ashrama. Ashrama again for ashrama, brahmacharya, grihastha, vanaprastha, sannyastha. So any of these four, wherever we are currently allocated, either if it is brahmacharya, brahmacharya ritya yatyat karma acharanam, guru seva, vidyarthis de jivanam, yat bhiksha acharanam, tatra masushuptaha, tatra brahmacharya brahmopadesha samaye, tatra there are rules which have been told, tatra भिक्षाचर्यं चर बाढं मा सुषुप्ताः बाढं आचार्याधीनो भव बाढं. ही टेल्स् यस् टु आल् दिस् एण्ड् ही एण्टर्स् द ब्रह्मचर्याश्रम. सिमिलर्ली गृहस्थाश्रम, तत्र पश्यामश्चेत् एकमिषे विष्णुस्त्वा अन्वेतु द्वे ऊर्जे त्रीणि मायोभवाय चत्वारि एवं तत्र तत्रापि रूल्स् एण्ड् रेगुलेशन्स् आर् देर्. ही अग्रीस् टु द प्रिन्सिपल्स् एण्ड् ही एण्टर्स् गृहस्थाश्रम. देन् वेन् ही एण्टर्स् वानप्रस्थ देर् आर् रूल्स् एण्ड् रेगुलेशन्स्. एवं यत्यत् आश्रमरीत्या धर्माचरणं रूल्स् यदस्ति तत् पालनेन इट् बिकम्स् कर्म. सो वाट् एवर् इस् द वर्ण, वाट् एवर् इस् द आश्रम, वर्णाश्रम धर्म ईक्वल् टु कर्म. Simple definition of karma. So first we will decide whichever varna we are, tatra brahmana, kshatriya, vaishya, shudra. Of these four, where we belong, first one. Second one, ashrama, brahmacharya, grihastha, vanaprastha, sannyastha. So a combination, let us say brahmana, grihastha. This combination we get. Yatyate brahmananam shat karmani dine dine tatra pancha yagyam yadasti. We have discussed all these six karmas. We said pancha yagya, we said what they have to do, pitra yagya, bhuta yagya, deva yagya, brahma yagya, all these we spoke about it. Then the shat karmani, yajanam, yajanam, adhyanam, adhyapanam, danam, pratigraha. We spoke about the six karmas, all those which have been allocated for a brahmana. And finally, brahmanasya tu dehoyam nopabhogaya kalpate iha kleshaya mahate pretyananta sukhaya cha. A Brahmin's sharira which is there, na upabhogaya kalpate, tatra upabhogartam na kalpitam asti, it is not for enjoyments. Kevalam tatra iha kleshaya mahate, there are a lot of klesha, that is for the sake of upakara, paropakara artham idam shariram. So iha kleshaya mahate, so that pretyananta sukhaya cha, upari yatra iha parasukham idasti, parasukharte eva tena तत्र कार्यं कर्तव्यम्. एवं दीस् आर् द सम् रूल्स् एण्ड् रेगुलेशन्स् विच् हव् गिवन् फार् एव्रि वर्ण, एव्रि आश्रम. फालोयिङ्ग् दट् वी कम् टु द लूप् आफ् कर्मणि एव ते अधिकारः अस्ति. दट् इस् द फस्ट् पार्ट् आफ् इट्. कर्मणि ते अधिकार अस्ति इत्युक्ते देयर इज नॉट मच ऑफ अधिकारः कर्मणि एव अस्ति इत्युक्ते इट कैन बी इंटरप्रेटेड इन अदर वे आल्सो युअर राइट्स मीन्स युअर ड्यूटी इज आल्सो कर्मणि एव देयर इज नो ऑप्शन फॉर इनएक्शन देयर इज नो ऑप्शन फॉर जस्ट staying without doing any of the other works and all. So when we say karmani eva adhikara hai, first analysis, what is karma, we finished. Second part of it, karmani eva adhikara hai, therefore akarmani te adhikara hai nasti. There is no right for you to sit without doing action. Three, dushkarmani te adhikara hai nasti. कर्मणि ते अधिकारः अस्ति चेत् यत्यत् अलाटेड् कर्म अस्ति तदेव तत्रैव अधिकारः अस्ति दुष्कर्मणि अधिकारः नास्ति वन ऑफ अवर कमेंटेटर्स गिव्स वेरी गुड एग्जांपल ऑफ टेकिंग लाइसेंस फॉर आर्म्स एंड अम्युनिशंस लेट अस से समबडी इज गिवन एन लाइसेंस फॉर टेकिंग अ गन गवर्नमेंट यदा लाइसेंस ददाति तदा केवलं तत्र यत् स्व आत्मरक्षणार्थं नो चेत् दुष्ट जनानां दुष्ट प्राणिनां मारणार्थमेव अस्ति तत्र तदर्थं दीयते चेत् अन्येषां कृते तत्र ये ये सज्जनाः सन्ति ये ये सम्यक् कार्यं कुर्वन्ति तान् मारितुं तत्र लैसेन्स् न दत्तमस्ति तत्र रैट् नास्ति एवं इवन् रीसेण्ट्लि वि हेड् वन् आफ् द हैकोर्ट् जड्ज्मेण्ट् विच् स्पोक् अबौट् द लैसेन्स् टु ड्रैव् अ वेहिकल् ईस् ओन्ली टु ड्रैव् एण्ड् नाट् टु किल् एनिबडि रीसेण्ट्लि देर् वास् वन् केस् एस्टर्डे आर् डे बिफोर् एस्टर्डे वि हेड् दिस् जड्ज्मेण्ट् तत्र पश्यामश्चेत् कर्मणि अधिकारः अस्ति चेत् कर्म कर्तुमेव अधिकारः अस्ति दुष्कर्म वा अकर्म बोध् दीस् प्लेसस् अधिकारः नास्ति दट् हेस् टु बि क्लियर्लि इम्प्लैड् इन् दिस् Which is why this is one of the most useful shlokas and most implementable and most followed shloka in Bhagavad Gita if we see. For a sadhaka, for an achiever in the sadhaka marga, sadhana marga, this is the most very important shloka. Only thing is it has to be understood and applied in the right way everywhere. Agre gachamaha tatra ma phaleshu kadachana. इत्युक्ते ते अधिकारः फलेषु नास्ति इत्युक्ते किं प्रथमं तावत् तत्र योगरीत्या कर्म कुरु इत्युक्ते फलापेक्षां विना कर्म कुरु डू एक्शन्स् वितौट् एक्स्पेक्टिङ्ग् फ्रूट्स् फस्ट् थिङ्ग् देयरफोर् फलेषु अधिकारः नास्ति सेकेण्ड् फलेषु ते अधिकारः नास्ति इत्युक्ते यू डू नाट् नो वाट् फ्रूट्स् यू विल् गेट् That is also there. Aham yetat karomi tarhi chet yetat eva labhyate. I will run for so long. Evam yetat ritya calories burn bhavati. Aham yetat karyam karomi yetat labhyate. Iti ritya sarvada asmabhi tatra calculate kritva tatra karyam kartum nashakyate. Karma kartum nashakyate. Evam phalam yad bhavati iti jnanam api asmakam kritena bhavati. First one of the thing is फलेषु अधिकारः नास्ति देर् इस् नो रैट् ओवर् द फ्रूट्स् सो बी डिटाच्ड् एण्ड् डू योर् आक्टिविटीस् त्री यद्यदपि फलं भवति दट् आल्सो यू विल् नाट् नो वाट् एवर् इस् कमिङ्ग् वेन् इट् इस् कमिङ्ग् हौ इट् इस् गोयिङ्ग् टु कम् यत्किमपि अस्ति तत्सर्व ज्ञानमेव न भवति एवं तदर्थमेव अस्माभिः तत्र फलेषु अधिकारः न भवति इति उक्तमस्ति तर्हि चेत् एकः उत्तमः प्रश्नः भवति देर् इस् एन् इम्पार्टेण्ट् क्वशन् विच् पीपल् आस्क् देन् वैल् डूयिङ्ग् सङ्कल्प यु डू श्री परमेश्वरप्रीत्यर्थं फस्ट् सङ्कल्प एनिवेस् पीपल् डू दे हेव् अ वेरि वेरि बिग् लाण्ड्रि लिस्ट् आफ् अदर् थिङ्ग्स् दट् इस् इष्टकाम्यार् सिद्धर्थं धर्मार्थ काम्यमोक्षसिद्धं राजद्वारे सर्वानुकूल उद्योग लाभ श्रेयोभिवृद्ध्यर्थं धनकनक वस्तुवाहनादि पुत्रलाभ आल् दीस् दे डू दट् इस् फस्ट् थिङ्ग् फ्रम् देर् इफ् यू रेड्यूस् इट् लिटिल् बिट् आफ् ज्ञान वि कम् टु संथिङ्ग् काल्ड् श्री परमेश्वर प्रीत्यर्थं विवेक वैराग्य सिद्ध्यर्थं मोक्षसिद्ध्यर्थम् इत्यपि केचन जनाः प्रार्थनां कुर्वन्ति सो ईस् आस्किङ्ग् दट् राङ्ग् Is that also, isn't that also a phala? So asking for moksha, asking for viveka vairagya, is that also a part of phala and is it wrong? If somebody asks for that, our commentator, Bhashyakaras, they give excellent answer. One, You need not ask for moksha also over the period. You will get that once we go in the marga, karma plus bhakti plus shraddha, first stage. Second stage, viveka, vairagya, shamadhi, satka sampatti and mumukshutva. With all these, anyways, once we are going in that marga, we will go to mumukshutva. That is first explanation given. Second explanation is, whatever, even when you are asking for the mumukshutva itself, that is only a desire to leave away from other things and go to this. Therefore, it is again a desire to have maphaleshu adhikaraha only. So, which makes it qualifiable for a initial sadhaka. So, asking for salvation itself shows that you are ready to sacrifice everything else and you are doing without phala. So, therefore, it is fine. It is not a hindrance to your sadhaka, which is what they kind of concluded. Evam phaleshu adhikaraha nasti, karmani eva adhikaraha asti. This is why how we have to analyze. Further, when we go to ma karma phala hetuhu bhuhu ma te sangostu akarmani. So therefore, tatra karma phala hetur bhuhu. Therefore, whatever we are doing, we should not be instrumental in making all our actions bear fruit and also be desiring that only. Evam tatra, when we saw that the first pada has a compensating clarification in the fourth pada and second pada has a compensating clarification in the third pada also. Evam karmani eva adhikaraha asti ityukte kim. Okay, ma phaleshu kadachana, I don't want any fruits. Tatra fruits madhye adhikarha nasti. And while doing actions, do not keep on generating fruits for actions, which means that whatever you do, whatever fruits are going to be generated, immediately Shri Krishna arpanamastu kayena vachayati ityadikam uktva sarvam yadyadmai asmabhi kritamati tat sarvam brahmarpanamastu guru charanarvinda arpanamastu parabrahmarpanamastu yadat sarvam uktva tat sarvam arpanam kartavyam. Do not generate fruits for it. Tat tritiyam. Okay, having told one pada, pada one, pada two, pada three, fine. If all these are happening, let me just sit quietly. I don't want to do anything. Anyways, I am not going to get anything. Aham kevalam tatra upavishami kimappi karyam na karomi mama karma na karomi iti edi upavishte sati tatraiva clarification dattamasti te akarmani sangaha ma astu. Te akarmani sangaha mastu. Just because we are telling all this, you cannot resort to inaction. Whatever has been allocated to you, you have to finish. In however many janmas, you have to finish. Very, very simple. We are allocated, let us say, 1,000 rupees. And that 1,000 rupees has a validity of one day. We will try to finish it within 1 minute itself. Similarly, if we don't finish it, then whatever that 1,000 is there, it will be taken back away from us and will not be given to us because we don't know how to use it properly, appropriately. The same concept applies to time also. Yadkimapi time asmabhi krite dattamasti, yadi asmabhi tatra samyak na upayujyate, tarhi tat time api punaha svikriyate. Similarly, the birth also. Asmakam krite yat jivanam dattamasti, tasya jivanasya karma rītya varnāśrama dharma pālana rītya yadi asmābhi tatra saphali kriyakaranam nakriyate, yadi asmābhi mumukshutva siddhi marge nagamyate, tarhi prayojanam nasti jivanam dattva iti vichintya tatra tiryakyoni janma eva punaha diyate. When the human durlabham trayame vaitate daiva anugraha hetukam manushyatvam mumukshutvam mahapurusha samshayah. Viveka Chudamani clearly tells about it. Agre also it is told durlabham manusho janma tatrapicha pumstvam ityadikam api uktamasti. That is, it is very very rare to get the manushya janma. So kindly do not waste the manushya janma and take actions and get fully fruitful out of it. Otherwise, the manushya janma will not be given to you. You will only be given a other tiryak janma. If you are able to liberate yourself from this, excellent. If you are not able to liberate, again, shuchinam srimatam gehe yoga brashtobhi jayate, you will be born in a good family. Even though you have done little bit, because svalpamapyasya dharmasya trayate mahato bhayat, therefore it gets continued, it does not go waste. All the degree what we get this time goes off, all the wealth we get goes off, friends and families goes off, but finally only one thing which stays with us always is the Guru Anugraha, the Devata Karya, the Karma Phala, the good things what we do. All these are savings account. They go and sit in an account and they continue after birth, after birth, after birth till we get mukti. Therefore, karmanyeva te adhikarah asti phaleshu nasti karma phala hetur bhuhu ma bhava apicha akarmani te sangaha mastu. Excellent shloka. Tat ditya jivane asmabhi paranam kartum shakyate. Agre shloka number 48 pashyamah. Yogastha kuru karmani sangam tyaktva dhananjaya siddhya siddhyo samo bhutva siddhya siddhya siddhi asiddhi siddhya siddhyo samo bhutva samatvam yoga uchyate shlokam Dvivaram patatu. Please read the shloka 2 times. Do the padapadartham padapadachedaha kurvantu anvayam pashyamaha. Very very simple, some sarala samskrita madhye asti. No need to explain anything at all. Param, as of all the other shlokas, concept kinchit arthavagamanam kurmaha, agre implement api kurmaha. Implement karanam eva ativa klishtam, anyat sarvam sulabham bhavati. This shloka is the answer to the second part of the previous shloka. Ma karma phala hetur bhuhu te akarmani sango mastu. Then how should I do my work? Very simple question. Immediately if there is a kid and telling the Bhagavad Gita, immediately I'll just, okay, you tell all this, then how should I even do my work then? Yogastha karmani karmani kuru. Yogastha. So yogastha. Yoge sthitva karma kuru. Okay, then what is yoga? Sangam tyaktva siddhya siddhya samobhutva, because samatvam yoga uchyate. Samatvam, equanimity of thoughts, equanimity of actions, equanimity of state of mind is yoga. Siddhya siddhya siddhi asiddhyoho samobhutva, being equal in success, failure, ninda, stuti, sukha, dukha, jaya, parajaya. When we don't even want the fruits, when we are not doing actions which will create fruits, karma phala hetur bhuhu ma bhava, when we are not doing actions for the sake of creating fruits, then whatever be the fruits, we will not be affected anyways. Siddhya siddhyo samobhutva sangaha sangam tyaktva dhananjaya. Sangam, yet kimapi attachment asti, yet kimapi hala apeksha, sangha ityukte apeksha yadasti, tat tyaktva he dhananjaya yogastaha karmani kuru. Pashyamaha anvayam padapadartham yogastaha kuru karmani sangam tyaktva dhananjaya siddhya siddhyoho samaha bhutva samatvam yoga uchyate. He dhananjaya, sangam tyaktva siddhi asiddhyoho samaha bhutva yogastha रीत्या कर्माणि कुरु यतः समत्वं योग उच्यते। पश्यामः हे अर्जुन, संगम त्यक्त्वा, संगम अत्यासक्तिम, अत्यासक्ति आसक्ति इटसेल्फ संग अत्यासक्ति अटैचमेंट टुवर्ड्स द फ्रूट्स अटैचमेंट सर्वं त्यक्त्वा परित्यज्य विच इज वै तर्हि अटैचमेंट त्यक्त्वा कथं कर्तुं शक्यते, हाउ कैन वी डू इट, बिकॉज वंस वी नो दैट द फ्रूट्स आर नॉट गोइंग टू कम टू अस ऑब्वियसली द इंटरेस्ट डिक्रीजेस बट इट शुड नॉट हैपन लाइक दैट। ऑलवेज वर्क विद attachment without detachment, that is you should have a detached approach but without any attachment. Ityukte kim, all the karma, whatever karma is there, either nitya karma anushthanam, nama sankirtanam, tatra janaseva, apicha parayanadikam, yatkimapi samskrita adhyena adhyapanadikam, yatkimapi karma asmabhi swikriyate, all those we should be doing it. But while doing it, it is not that we should stop doing all that. We should be doing it with full strength and full enthusiasm. But we should not be expecting any fruits or everything out of it. Whatever the benefits are there will automatically accrue and come to the respective people. He Dhananjaya, Sangam Tyaktva Atyasaktim Parityajya सिद्ध्य सिद्धयोः सिद्धि असिद्धि लाभ अलाभ जय पराजय लाभ नष्ट इत्यपि स्वीकर्तुं शक्यते। तत्र सिद्ध्य सिद्धयोः फलयोः मध्ये समः भूत्वा समः समानः समान मनस्कः समान बुद्धियुक्तः समान रीत्या वर्तमानः बीइंग सेम बीइंग इन अ समत्व भाव बीइंग लाइक दैट तत्र किं भवति सिद्ध्य सिद्ध्योः समो भूत्वा समत्वं योग उच्यते। योगस्थः कर्माणि कुरु एकाग्र मनस्कः योगस्थः एकाग्ररीत्या एकाग्र मनस्कः भूत्वा आचरणं कर्माचरणं कुरु यतः समत्वं समानता समान मनस्कः एव योगः। सो देयरफॉर कर्मणि अधिकारः अस्ति। कर्म इत्युक्ते किं वर्णाश्रमधर्मं। कर्मणि अधिकारः अस्ते कथं कर्तव्यं, जस्ट पुट द 5W1H, व्हाट इज कर्म एक्सप्लेन्ड। वर्णाश्रमधर्म, वर्ण एंड आश्रम बोध धर्माज आर कर्म। वेन वी शुड डू सर्वदा कर्तव्यं, बिकॉज अकर्मणि ते संगः नास्ति, देयरफॉर ऑलवेज कर्मणि अधिकारः अस्ति। वाट वेन वै किमर्थं कर्तव्यं, यतः तदेव मुक्तिमार्गः भवति, यतः कर्मफलहेतुर्भूः न भवितव्यं, देयरफॉर कर्म कर्तव्यं। वाट वेन वै हौ कथं कर्तव्यं, योगस्थः कुरु। योग इत्युक्ते वाट समत्वं, समत्वं इत्युक्ते वाट सिद्ध्य सिद्ध्यो समो भूत्वा, वेरी सिंपल। सो स्टेप बै स्टेप अतीव क्लियर रीत्या डिस्पेलिंग ऑल डाउट्स, बिकॉज संशयात्मा विनश्यति ही नोट्स, डिस्पेलिंग ऑल डाउट्स वेरी लॉजिकली सिस्टमैटिकली स्टेप बाय स्टेप रीत्या एक्सप्लेनेशन दत्तमस्ति, सम्यक् रीत्या दत्तमस्ति। पश्यामः हे धनंजय, अकारांत पुल्लिंग संबोधन प्रथमेकवचनं, संगम द्वितीयाव्यक्ति एकवचनं, त्यक्त्वा त्यक्त्वा त्वान्ताव्ययं त्वान्तकृदन्ता त्वा प्रत्ययः, सिद्ध्य सिद्धि असिद्धि स्त्रीलिंग सिद्धयोः इन बिटवीन बोथ ऑफ दी सप्तमी द्विवचनम, समः पुल्लिंग प्रथमैकवचनम, भूत्वा त्वान्ताव्ययम्, योगस्थः पुल्लिंग प्रथमैकवचनम, कर्माणि कर्म कर्मणि कर्माणि, कर्मन नकारांत नपुंसकलिंग, कर्मन शब्दः द्वितीयाविभक्ति बहुवचनम, कर्म कर्मणि कर्माणि, कर्म कर्मणि कर्माणि, कर्मणा कर्मभ्यां कर्मभिः, कुरु डुक्रंच करणे तत्र उभयपदी धातुः, तनादि तत्र करोतु कुरुतात् कुरुतां कुर्वन्तु, कुरु कुरुतात् कुरुतं कुरुत, करवाणि करवाव करवाम, तत्र लोट मध्यमपुरुष एकवचनं, कुरु यतः समत्वं समत्वं, नपुंसकलिंग प्रथमैकवचनं, योगः प्रथमैकवचनं, उच्यते उच्यते यदि वयं पश्यामश्चेत् तत्र अस्माभिः पूर्वमेव एतत् दृष्टमस्ति, उच्यते लट आत्मनेपदी प्रथमपुरुष एकवचनम्, उच्यते उच्येते उच्यन्ते उच्यसे उच्येते उच्यध्वे उच्ये उच्यावहे उच्यामहे, धातोः नाम वच परिभाषणे अदादिगणैः लट कर्मणि तत्र आत्मनेपद्यां वर्तते, उच्यते उच्येते उच्यन्ते उच्यसे उच्येते उच्यते एवं समत्वं योगः उच्यते अस्माभिः एवं दृष्टमस्ति पश्यामः हे धनंजय अत्यासक्तिं त्यक्त्वा सिद्धि असिद्धयोः समः भूत्वा योगस्थः कर्माणि कुरु यतः समत्वं योग उच्यते लाभालाभयोः विषये समानतया व्यवहारः योगस्थः योगः इति उच्यते हे अर्जुन हे धनंजय बीइंग स्टेडफास्ट इन योग परफॉर्म एक्शंस अबैंडनिंग अटैचमेंट रिमेनिंग अनकंसर्नड एज रिगार्ड्स टू सक्सेस एंड फेल्यूर दिस इवननेस ऑफ माइंड in regards to success and failure is only known as yoga very very aptly dhananjaya iti tatra tatra padasya upayogah krita dhanam ityukte what is real dhanam for us we have to see very very nice word used dhananjaya you have conquered the wealth across the country across the world you have conquered wealth dhanam tatra jitavan sah arjuna but real dhana is what real dhana is whatever swadharma you have to do swadharma acharanena yat labhyate that is the real dharma just by running away whatever dhana you are going to get that is not a dhana therefore real dhana ramadhana krishna dhana in different ritya tat sarva muktam asti what is real dhana ityukte रियल वेल्थ यत् तत्र उच्यते तदेव निधि साल सुखमा रामुडु सन्निधि सेवा चाल सुखमा सो निधि वेन वी से रामस्य सन्निधिरेव तत्र महान निधिः इति त्यागराजेन यदुक्तमस्ति तावद्रीत्या द्रष्टव्यं धनंजय इत्युक्ते तत्र धनं सर्वं जितमस्ति एतद् धनं यदस्ति तत्र कर्मधनं सेवाधनं यदस्ति तत्र तत् मोक्षधनं यदस्ति तत् प्रापणीयं तत् स्वीकरणीयं तत् आचरणीयम् एवं हे धनंजय एतदेव योग एवं कार्यं कुरु इत्येव धनंजय इत्यपि तत्र नाम दत्तमस्ति समो भूत्वा विसर्ग सकार रेफ उकार गुणादेशः योग उच्यते योगः उच्यते विसर्ग लोपसन्धि सिद्धिश्च असिद्धिश्च तयोः सिद्धि सिद्ध्य सिद्धयोः द्वंद्व समासः त्यज धातोः क्त्वा प्रत्ययः त्यक्त्वा भू धातोः त्वा प्रत्ययः भूत्वा समत्वं समस्य भावः समत्वं तत्र भावार्थ तद्धिता भावार्थे त्व प्रत्ययः तत्र समत्वं इत्यस्ति तद्धितान्तः सो समस्य भावः समत्वं भावार्थक तद्धित्त एवं पश्यामः अत्र अस्माभिः उक्तमासीत् तत्र उदाहरणार्थे इफ् यू हव् टु टेक् द उदाहरणं वि सेड् रामस्य उदाहरणं स्वीकुर्मः ओके आल् आर् दीस् आर् फैन् थियरी इस् फैन् प्लीस् टेल् मी सम् प्राक्टिकल् दिस् थिङ्ग् हौ सम्बडि एक्साम्पल् सम्बडि हस् फालोड् पश्यामः रामस्य चरिते every stage of it we can see this especially tatra ayodhya kandasya prathama sarge balakanda samapanam asti ayodhya kandasya prathama sarge tatra dasharatah chintayati idani mama tatra vrdhapyam abhavat I will give the kingdom to Rama and he announces it as Rama will be the Pattabhisheka will be done so the previous day of the Pattabhisheka tatra kankana dharanam sarvam bhavati tatra janaha sarve vadanti dasharatha prathamataya vadati tatra swashvaha pattabhishekam asti iti saha vadati then agre gacchati tatra sita api mangalacharanam karoti tatra let all the dishah sarvani mangalam kurvantu she does a small mangalacharanam mata kausalya is very very happy finally having been ill treated so long tatra ayodhya kande madhye pashyamaschet we see how dasharatha was always more inclined towards kaikeyi and not towards the kausalya and how there was lot of times when she was being neglected and now kausalya is more happy that rama is getting this thing so even she is also very happy and giving lot of praise and as he is walking towards when Kaikeyi is calling him and the two boons are being taken and Kaikeyi is calling Sumantara comes and calls him to Kaikeyi's room tada api janaha sarve vadanti tomorrow he is going to be Pattabhisheka and he is going to be our raja what a great person people are praising all this and Rama nishkalankah పద్మపత్రమివాంబసా సహా కేవలం సర్వం యాజ్ అ పార్టీ టు ఆల్ ద సెలబ్రేషన్స్ అరౌండ్ హీస్ జస్ట్ స్టాండింగ్ దేర్ అండ్ హీస్ గోయింగ్ దేర్ ఇమీడియట్లీ విద్ ఇన్ 5 మినిట్స్ కైకేయి టెల్స్ రాజ్యం నాస్తి భరతస్య అభిషేచనం అనంతరం భవతః నవపంచవర్షాణి రామ వనాగమనం ఇది సహ వదతి తదాపి కించిదపి స్ఖలనం నభూత్వా నాట్ ఈవెన్ ఎ లిటిల్ బిట్ ఆఫ్ చేంజ్ ఆఫ్ థాట్స్ చేంజ్ ఆఫ్ మైండ్ చేంజ్ ఆఫ్ ఎక్స్ప్రెషన్ నాహం అర్థపరో దేవి యు కెన్ ఐఎమ్ నాట్ అర్థపరా నాస్మి అహం యు కెన్ ఈజీలీ టేక్ ఇట్ ప్లీజ్ గివ్ ఇట్ టు భరత ఐల్ బి హ్యాపీ టు గో టు ఫారెస్ట్ ద సేమ్ స్టేట్ ఆఫ్ మైండ్ సమత్వం సిద్ధ్య సిద్ధ్యో సమోభూత్వా సమత్వం యోగ ఉచ్యతే అట్ దట్ మొమెంట్ వెన్ రామ హియర్స్ దిస్ అండ్ హీ డిసైడ్స్ దేర్ సమత్వం యోగ ఉచ్యతే దట్ ఈస్ ద ఎగ్జాక్ట్ ఎగ్జాంపుల్ wherein you get a very very big entire kingdom of thousands and lakhs of crores of rupees or dollars whatever we can put today that is the kingdom which comes to you which is going to come to you and in a moment when somebody says that is not yours it is going to be your brother on the contrary you have to go to a forest where you don't even have the basic necessities when somebody tells tat kinchidapi skalanam nasti kinchidapi tatra vichalanam nasti manasi mind heart soul ఎక్స్ప్రెషన్ ఫేస్ సర్వం తావత్ సిద్ధ్య సిద్ధ్యో సమోభూత్వ దిస్ ఇస్ ద అగైన్ అట్ ఈచ్ శ్లోక వి హవ్ ట్రైడ్ టు సీ ద సమ్ ఆఫ్ అమౌంట్ ఆఫ్ బెంచ్ మార్కింగ్ ఫర్ వైరాగ్య వి సా ద బెంచ్ మార్కింగ్ ఆఫ్ సదాశివ బ్రహ్మేంద్ర అండ్ భర్తృహరి ఫర్ భక్తి వి సా ద బెంచ్ మార్క్ ఆఫ్ కన్నప్ప నాయనార్ we saw the then for other each of these for atmagyanam again we saw benchmarks for shravanam we saw the benchmark parikshit ityadikam we saw in lot of other places for viveka for vairagya for sadhana also we saw similarly for samatvam yoga uchyate this is the benchmark and what we have to achieve tatra pratinityamapi asmabhi tatra jivane tasya anvayam kartum shakyate small small labha small small getting something losing something small small objects are also there wherein we can practice but this is the benchmark which wherein even a small amount of skalanam or change of expression also should not happen that is real samatvam siddhya siddhyo samobhutva samatvam yoga uchyate this is the what is okay pashyamah agre we will just introduce the next shloka and try to contemplate on this same shloka pashyamah dure nahyavaram karma buddhi yoga dhananjaya buddhau sharanamanvichcha kripana phala hetavah shlokam dvivaram patantu పదచ్ఛేదం కుర్వంతు వెరీ వెరీ సింపుల్ శ్లోక మా కర్మ ఫలహేతుర్భూహు వాస్ టోల్డ్ ఇన్ 47 further explaining it clarifying it further because kripanaah phalahetavah those people who work towards only pure fruits they are kripanaah starting probably to give that bhakti marga where we saw that tatra jayam prapte sati tatra rajyam labhyate no chet mukti labhyate ityadikam some small small incentives may be given for a sadhaka saying that you will be getting this you will be getting that but then purely always concentrating on that we took the example of a mother who says you finish this work I will give you an ice cream you finish that you will get this because you study properly today you get this mark I will get you a bicycle I'll get you an ice cream or something so basically the sadhana phala is not getting ice cream it is about he getting good mark and vidya that is the phala actually but this is only given as an incentive but just for bicycle and for this thing if he is just doing something he would rather go earn some 10,000 rupees get a bicycle by himself So that will be wrong. Going by that route is wrong. During sadhana, when this phala, yavanartha udapane samprasarvada samplutodake, if it happens, if that is the phala which is coming, that part of it, initially for a sadhaka is fine. But over the period, kripanaha phala hetavaha. That is the, with that kind of a thought, we will leave today. Ma karma phala heturbuhu, because kripanaha phalahetavah. Evam ritya anvayamapi kartum shakyate. We will further analyze this and try to enjoy the Bhagavad Gita adhyayanam together and have more discussions. Agrima kakshayamapi pashyamaha. Kindly keep on tatra parayanam, mananam, adhyayanam, adhyapanam, nididhyasanam. Keep on doing it. Let us also together be doing that always, telling the shlokas and thinking of the shlokas. We get new meaning, new explanations, and we'll have more peaceful day in our lives on a daily basis. Pashyamaha tavat paryantam. Dhanyavadaha. Yatra yogeshwarah krishno yatra partho dhanurdharah. Tatra shrir vijayo bhutir dhruvani tirma tirmama. Gurureva gatihi gurumeva bhaje gurunaiva sahasminamo gurave. Nagurov paramam